एतत् शब्दशास्त्रम् अतः प्रातिपदिकं शब्दस्वरूपम् इति स्वीक्रियते. अत्र विशेष्यं शब्दस्वरूपं प्रातिपदिकम् अर्थवत् प्रातिपदिकम् अर्थवत् शब्दस्वरूपं प्रातिपदिकम् इति स्वीक्रियते. इदानीं तत् शब्दस्वरूपं कीदृशं भवेत्? धातुं धातुः न भवेत्, धातुः न भवेत्, प्रत्ययः न भवेत्, प्रत्ययान्तमपि न भवेत्. एवम् अर्थवत् शब्दस्वरूपं प्रातिपदिकं संज्ञं स्यात्. इदानीं रामशब्दं स्वीकुर्मः. राम इति प्रातिपदिकस्य स्वीकरणेन प्रसिद्धार्थः दशरथपुत्रः रामः. एवं राम इति शब्दस्य तत्र पिण्डीभूतः मनुष्यः अस्माकं मनसि आगच्छति. सः दशरथपुत्रः वा अस्माकं सुहृद् रामः वा यः कोऽपि भवतु, परन्तु तस्य अर्थं भवति, तस्य अर्थः भवति. अतः राम इत्यस्य प्रातिपदिकसंज्ञा भवति, यतोहि अर्थवत् शब्दस्वरूपम्. यदि अस्माभिः अर्थवत् इति न उच्यते तर्हि किं भवति? प्रत्येकवर्णस्य प्रातिपदिकसंज्ञा स्यात्. इदानीं राम इत्यत्र रकारोत्तर अकारः, तदनन्तरं रकारोत्तर आकारः, मकारोत्तर आकारः अस्ति. एवं चत्वारः वर्णाः सन्ति. प्रत्येकवर्णस्य प्रातिपदिकसंज्ञा स्यात् यदि अर्थवत् शब्दस्वरूपम् इति अस्माभिः न स्वीक्रियते. अर्थवत् इति विशेषणं न स्वीक्रियते चेत् तर्हि प्रत्येकवर्णस्य प्रातिपदिकसंज्ञा आपत्तिः, प्रत्येकवर्णस्य प्रातिपदिकसंज्ञापत्तिः. अतः अस्माभिः अर्थवत् इति वक्तव्यम्. परन्तु सः धातुः न भवेत्. किमर्थं धातुः न भवेत् इति अत्र उच्यते इत्युक्ते, अस्माभिः ह्यस्तनकक्षायामपि एतस्य विषये किञ्चित् उक्तं. हन् धातुः अस्ति. हन् धातोः लङ्लकाररूपं लङ्लकाररूपं किम् अस्ति? प्रथमपुरुष एकवचनरूपं, मध्यमपुरुष एकवचनरूपम् अहन् इति अस्ति. अत्र अहन् इति अहन् इति अत्र धातुमात्रम् अवशिष्यते. पश्यन्तु, तत्र हन् धातुः अस्ति. हन् धातोः तिबादिप्रत्ययाः युज्यन्ते. तिप् तस् जि सिप् थस् मस् इत्यादि प्रत्ययाः युज्यन्ते. तदनन्तरं कश्चन रूपस्य निष्पत्तिः भवति. तदा हन् धातोः लङ्लकाररूपम् अहन् इति अस्ति. तत् धातुः यथा अस्ति तथैव प्रत्ययसहितरूपमपि तथैव अस्ति. अत्र किं भवति? प्रत्ययस्य लोपः इत्यादिकं कार्यं इत्यादि कार्याणि भवन्ति। अतः इदानीम् अहन् इति शब्दस्य प्रातिपदिकसंज्ञा भवतु, लङ्लकार रूपस्य अहन् इत्यस्य प्रातिपदिकसंज्ञा भवतु इति उच्यते चेत् तदा अस्माभिः उच्यते यदि अत्र प्रातिपदिकसंज्ञा क्रियते चेत् तत्र नकारस्य लोपः स्यात्, नलोपप्रातिपदिकान्तस्य इति एकं सूत्रं विद्यते। यदि अहन् इत्यस्य अहन् इति शब्दस्य लङ्लकाररूपशब्दस्य यदि प्रातिपदिकसंज्ञा विधीयते तर्हि अहन् इत्यत्र प्रातिपदिकसंज्ञाविधानेन प्रातिपदिकसंज्ञानिमित्तकार्याणि भवन्ति। इदानीं नलोपः प्रातिपदिकान्तस्य इति एकं सूत्रं नकारस्य लोपं करोति, एवम् अहन् इत्यस्य इत्यत्र नकारस्य लोपः लङ्लकाररूपेषु भवति, एवम् अह इत्येव अनिष्टरूपस्य आपत्तिः। अतः अस्माभिः अत्रैव उच्यते सः प्राक् शब्दस्वरूपं तत्शब्दस्वरूपं धातुः न भवेत्, अर्थवत् भवेत्, धातुः न भवेत्, प्रत्ययमपि न भवेत्। प्रत्ययमपि न भवेत् इत्युक्ते इदानीं हरीषु इत्यस्ति, अत्र सुप्रत्ययः अस्ति, करोषि इत्यस्ति, सिप् प्रत्ययः अस्ति, करोषि इत्यत्र सिप् प्रत्ययः अस्ति। यद्यपि सुप् सिप् इत्यादीनां प्रत्ययानां कश्चन अर्थः प्रत्ययानां योगेन मूलरूपस्य कश्चन अर्थः सम्भवति। इदानीं हरि इति प्रातिपदिकस्य सुप् इति प्रत्ययविधानेन हरीषु इति भवति सप्तविभक्ति बहुवचनरूपम्। प्रत्यययोजनेन एव प्रत्यययोगेन एव तत्र अर्थनिष्पत्तिः। एवम् इदानीं सुप् सिप् इत्यादि प्रत्ययाः यदा युज्यन्ते तदा किं भवति, सम्पूर्णशब्दस्य अर्थनिष्पत्तिः भवति। एवं तर्हि सुप् सिप् इत्यादीनामपि यदि प्रातिपदिकसंज्ञा क्रियते तर्हि सर्वत्र किं भवति, सर्वत्र एकवचनम् उत्सर्गतः भवति। इदानीं सिप् इत्यस्य प्रातिपदिकसंज्ञा, सुप् इत्यस्य प्रातिपदिकसंज्ञा, प्रत्ययानामपि प्रातिपदिकसंज्ञा विधीयते चेत् सर्वत्र एकवचनमेव उत्सर्गतः भवति, सर्वत्र एकवचनमेव। एवं सर्वत्र सुप्रत्ययस्यैव निष्पत्तिः। एवं अर्थवत् शब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् इत्यत्र अर्थवान् भवेत्, धातुः न भवेत्, एवं प्रत्ययः न भवेत्, प्रत्ययान्तम् अपि न भवेत् इति। यदि प्रत्यययोगेन हरिषु इत्यत्र पुनः प्रातिपदिकसंज्ञा यदि विधीयते तर्हि हरिषु सुप् इति पुनः हरिषुः, हरिषु, हरिषवः इति उकारान्तशब्दः भवति, अनन्तरं हरिषुषु इति भवति, अनन्तरं पुनः उकारान्तशब्दः भवति। एवम् अनवस्थाप्रसङ्गः भवति। अतः एवम् अस्माभिः प्रातिपदिकसंज्ञं तत्रैव क्रियते यत्र धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तं नास्ति, अर्थवत् शब्दस्वरूपम् अस्ति। इदानीं प्रातिपदिकम् इति संज्ञा महती संज्ञा कृता पाणिनिना अत्र पदं पदं प्रतिपदं प्रतिपदं अत्र प्रातिपदिकम् इति शब्दस्य निष्पत्तिः एवमस्ति पदं पदं प्रति प्रतिपदं तदर्हति इति प्रातिपदिकम् पदं पदं प्रति प्रतिपदं तदर्हति इति प्रातिपदिकम् अत्र किमर्थम् एवं महती संज्ञा कृता इत्युक्ते पूर्वाचार्याणां स एव क्रमः अतः सः पाणिनिः अपि स्वीकृतवान् इदानीम् अस्य सूत्रस्य उदाहरणं किम् इदानीं मुख्यप्रश्नः अस्य सूत्रस्य उदाहरणं किम् उदाहरणं डित्थ डवित्थादीनि अव्युत्पन्नानि शब्दस्वरूपाणि इदानीं किञ्चित् अवधानं दीयताम् अत्र प्रमुख तत्र कान्सेप्ट्स् इदानीम् उच्यते इदानीं शब्दानां विषये विदुषां मतद्वयम् अस्ति अव्युत्पन्नपक्षः अव्युत्पत्तिपक्षः व्युत्पत्तिपक्षः इति इदानीं अव्युत्ति प्रथमम् अव्युत्पत्तिपक्षं पश्यामः अव्युत्पत्तिपक्षः एवं वदति अव्युत्पत्तिपक्षः एवं वदति यस्य कस्यापि वस्तुनः संज्ञा यदा क्रियते संज्ञिनः समुदायशक्तिद्वारा द्योतते इत्युक्ते अवयवानाम् अवयवार्थकल्पनं संज्ञामध्ये अस्माभिः न करणीयम् इदानीं दशरथपुत्रः रामः अत्र राम इति प्रातिपदिक उच्चारणेन दशरथपुत्ररूपसंज्ञी प्रकटितः भवति अत्र दशरथः दशरथ इत्यादि अवयवार्थकल्पना न भवति एषः एव अव्युत्पत्तिपक्षः इत्युक्ते साधारणतया राम इति शब्दं कथमागतम् इत्युक्ते राम इति केनचित् मनुष्येन उच्चारितः अतः स्वीकृतः अतः आगतः अव्युत्पत्तिपक्षे शब्दानां प्रकृतिप्रत्ययविभागः अस्माभिः न कर्तुं शक्यते एषः एव अव्युत्पत्तिपक्षः अव्युत्पत्तिपक्ष इज़ लाइक द एंशिएंट मैन मेड सम साउंड्स बिकॉज ऑफ विच सर्टन साउंड्स वर क्रिएटेड इदानीं यस्य कस्य नाम डित्थ इति स्थापितम् डपित्थ इति स्थापितम् डित्थ इति कथम् डित्थ इत्यस्य प्रकृतिप्रत्ययविभागः अस्ति वा इति प्रश्नः यदा क्रियते इति प्रश्नः यदा क्रियते तदा उत्तरम् अस्माभिः उच्यते अत्र प्रकृतिप्रत्ययविभागः किमपि नास्ति एषा संज्ञा अस्ति डित्थ इति अस्य नाम इदानीं राम इति रामः उत पादपः इति अस्ति तद्भ्यां पिबति इति पादपः इति अस्ति व्युत्पत्तिपक्षः पादप इति कथमागतम् अस्माभिः जलं जलसेचनं पादमध्ये क्रियते अनन्तरं पादेन जलस्य स्वीकारः भवति अतः पादपः इति तस्य निष्पत्तिः एषः व्युत्पत्तिपक्षः व्युत्पत्तिपक्षे प्रतिशब्दस्य प्रत्येकशब्दस्य प्रकृतिप्रत्ययविभागः कर्तुं शक्यते इदानीं राम इत्येव स्वीकुर्मः रम धातुः घञ् प्रत्ययः रम इत्यस्य रम रमते इत्युक्ते रमन्ते योगिनः यस्मिन् इत्यर्थे रम धातोः घञ् प्रत्यये कृते रामः राम इति शब्दस्य निष्पत्तिः एवं युत्पत्तिपक्षे राम इति शब्दस्य प्रकृतिप्रत्ययविभागः अस्ति अव्युत्पत्तिपक्षे राम इत्यस्य राम इति संज्ञा एव अस्ति तत्र प्रकृतिप्रत्ययविभागः अवयवः तत्सर्वं दर्शयितुं न शक्यते इदानीं विदुषां मते पक्षद्वयं विद्यते अत्र शाकटायनः इति एकः वैयाकरणः आसीत् शाकटायनः सर्वं धातुजम् इति उक्तवान् अस्मिन् लोके ये ये शब्दाः सन्ति सर्वे धातुतः एव निष्पन्नाः सर्वं धातुजम् यत्किमपि शब्दम् अस्माभिः उच्यते धातुजम् इति सः वदति इदानीं रामः इति राम इति प्रातिपदिकमस्ति अत्र रम् धातुः अस्ति इदानीं नारदः इति शब्दः अस्ति नारदः पश्यामः तस्य अर्थं कथम् इति नारदः इति ब्रह्मपुत्रः नारदः नारं ज्ञानं नारं ददाति इति नारदः एवं कर्तुं शक्यते नारदः इति शब्दस्य निष्पादनसमये दा धातोः उपयोगः ददाति नारदः एवं अत्र सर्वं धातुजम् इति शाकटायनस्य मतम् शाकटायनस्य मतमेव व्युत्पत्तिपक्षम् इति सर्वैः प्रायः अनूद्यते परन्तु पाणिनिमतं पक्षद्वयमपि स्वीक्रियते सः वदति कदाचित् अनुकरणेन शब्दस्य अनुकरणेन प्रकृति मातुः अनुकरणेन कदाचित् एवमेव अवयवानां कल्पनां विना एव काचित् संज्ञा विधीयते तत्र अवयवानां कल्पना नास्ति इदानीन्तनकाले कलियुगे अव्युत्पत्तिपक्षस्य समर्थनम् अस्माभिः कर्तुं शक्यते यतोहि तत्र पीटर् जान् मेकेन्सि इत्यादि नामानि सन्ति किल तत्र अवयवानां कल्पना अस्ति वा जान् इत्यस्य किमपि धातुः अस्ति वा पीटर् जान् अत एव तादृश शब्दानां केषां केन सूत्रेण प्रातिपदिकसंज्ञा जान् इति शब्दस्य इत्युक्ते अर्थवद् अधातुरप्रत्ययप्रातिपदिकम् अव्युत्पन्नशब्दानाम् अव्युत्पत्तिपक्षः एव स्वीक्रियते तत्र पीटर् इत्यत्र पीटर् जान् इत्यादि तत्र अवयवकल्पना यत्र नास्ति इदानीं प्रश्नः एवमागतम् अस्य सूत्रस्य उदाहरणं किम् अस्य सूत्रस्य डित्थ डपित्तादीनि अव्युत्पन्नानि शब्दस्वरूपाणि उदाहरणानि भवन्ति अव्युत्पन्नं नाम अव्युत्पन्नशब्दाः के व्युत्पन्नशब्दाः के इत्युक्ते तत्र विदुषां मते पक्षद्वयं विद्यते व्युत्पत्तिपक्षः अव्युत्पत्तिपक्षः इति अव्युत्पत्तिपक्षे तत्र अवयवानां कल्पना विना एव संज्ञा क्रियते व्युत्पत्तिपक्षे अवयवानां कल्पना अस्ति एवं धातुजं भवति पाणिनि अनुसार पाणिनि मतानुसारेण पक्षद्वयमपि अंगीक्रियते व्युत्पत्तिपक्षः अव्युत्पत्तिपक्षः शाकटायनस्तु केवलं व्युत्पत्तिपक्षं अंगीकरोति एवं तत्र इदानीम् अस्य सूत्रस्य डित्तः दवित्तादीनि अव्युत्पन्नानि शब्दस्वरूपाणि राम इति शब्दः किमर्थम् अस्य सूत्रस्य उदाहरणं न भवितुमर्हति इति प्रश्नः आगच्छति तदर्थम् अग्रिमसूत्रं प्रति गच्छामः कृत्तद्वितसमासाश्च इदानीम् एकस्मिन् सूत्रे एव बहवः अंशाः उक्ताः एते सर्वे अंशाः अत्र स्लैड् मध्ये स्थापयितुं न शक्यते यदि स्थाप्यते स एव एकः प्रबन्धः भविष्यति अतः मया कक्षामध्ये इदानीन्तन आगामिकक्षासु स्लैड् मध्ये यावदपेक्षितं तावदेव अंशः लेखनं स्लैड् मध्ये भवति प्रधानांशः मया उच्यते कक्षासु कक्षामध्ये प्रधानांशाः उच्यन्ते अस्तु विद्या रमेश लागौट कृतवती आडियो सम्यक् नास्ति वा अस्तु एवं अर्थवदधातुरप्रत्ययप्रातिपदिकम् इति सूत्रस्य उदाहरणं डित्थ डपित्थ पीटर् जान् इत्यादीनि अव्युत्पन्नशब्दस्य स्वरूपाणि इदानीं तर्हि राम इति शब्दस्य प्रातिपदिकसंज्ञा नास्ति वा इति प्रश्नः भवति अतः द्वितीयं सूत्रं पश्यामः कृत्तद्वितसमासाश्च इति सूत्रम् कृत्तद्वितसमासाश्च इति सूत्रं प्रथमाध्यायस्य द्वितीयपादे अस्ति प्रातिपदिकम् इति पूर्वसूत्राद् अनुवर्तते कृत्तद्वितान्तौ समासाश्च प्रातिपदिकसंज्ञाः संज्ञकाः स्युः इति तत्र लघुकौमुद्यामस्ति इदानीम् अत्र कृत्तद्वितसमासाश्च इति कृत्तद्वितसमासाः च इति पदद्वयमेव विद्यते अनेनापि प्रातिपदिकसंज्ञा एव विधीयते कृत् च तद्वितश्च समासाश्च कृत्तद्वितसमासाः इति इतरेतरद्वन्द्वसमासः अर्थवत् इति शब्दस्य अनुवृत्तिः अत्रापि भवति अत्र कृत् इति शब्दस्य उच्चारणेन कृदन्तः स्वीक्रियते तद्धित इति शब्दस्य उच्चारणेन तद्धितान्तः स्वीक्रियते एवं कृदन्ताः तद्धितान्ताः एते कीदृशाः शब्दाः एते प्रत्ययान्तशब्दाः प्रत्ययान्तशब्दाः नाम इदानीं रं धातुः अस्ति तस्य घञ् प्रत्यये कृते राम इति भवति एवं घञ् प्रत्ययान्तशब्दः राम इति शब्दः एवमेव दाशरथि इति अस्ति दशरथस्य अपत्यं पुमान् दाशरथि ई इति प्रत्ययः अस्ति दशरथ इति शब्दस्य ई प्रत्यये कृते दाशरथि इति आगच्छति एवं दाशरथि इति शब्दः प्रत्ययान्तशब्दः राम इति शब्दः प्रत्ययान्तशब्दः एवं दाशरथि इति प्रत्ययान्तशब्दः सः तद्धितान्तः यतोहि इति तदित प्रत्ययः प्रातिपदिकेषु विधीयते तदित प्रत्ययः प्रातिपदिकेषु विधीयन्ते इदानीं कृत् प्रत्ययः धातुषु विधीयते यतो हि रम् धातुः घञ् प्रत्ययः इदानीम् उदाहरणद्वयेन एतौ द्वावपि प्रत्ययान्तशब्दौ इदानीं प्रत्ययान्तशब्दानां प्रातिपदिकसंज्ञा अर्थवद् अधातुः अप्रत्ययप्रातिपदिकम् इत्यनेन सूत्रेण प्रत्ययान्तशब्दानां प्रातिपदिकसंज्ञा अनेन सूत्रेण न विधीयते यतो हि अप्रत्ययः इति स्वीकृतं पूर्वसूत्रे अतः नूतनसूत्रम् आगतम् अत्र कृदन्तयोः तद्धितान्तयोश्च प्रत्ययान्तत्वात् पूर्वसूत्रेण अप्राप्तायां संज्ञायाम् इदं वचनम् इदं सूत्रम् आरभ्यते पाणिनिना पूर्वसूत्रेण न प्राप्तम् किं न प्राप्तम् प्रातिपदिकसंज्ञा न प्राप्ता अतः नूतनसूत्रम् पाणिनिना विधीयते इदानीम् अस्माभिः उच्यते समासाः सन्ति समासानामपि प्रातिपदिकसंज्ञा विधीयते इदानीं राजपुरुषः इति अस्ति राजपुरुष इति तस्य समस्तपदस्य राज्ञः पुरुषः राजपुरुषः राजपुरुष इति शब्दस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति वा न वा इति प्रश्नः केन सूत्रेण भवति इदानीं सूत्रद्वयमपि परिशीलनं कुर्मः कृत्तदितसमासाश्च अर्थवद् अधातुः अप्रत्ययप्रातिपदिकम् इदानीं राजपुरुष इति शब्दः धातुः वा राजपुरुष इति शब्दः धातुः वा न अतः न धातुः प्रत्ययः वा न प्रत्ययान्तः अपि न राजपुरुष इति शब्दः धातुः न प्रत्ययः न प्रत्ययान्तः न अतः अर्थः अर्थवत् शब्दस्वरूपम् अस्ति वा अस्ति अर्थवत् शब्दस्वरूपम् अस्ति तर्हि केन सूत्रेण प्रातिपदिकसंज्ञा अर्थवद् अधातुः अप्रत्ययप्रातिपदिकम् इति सूत्रेण प्रातिपदिकं भवति इदानीं प्रश्नः क्रियते तर्हि कृत्तद्वितसमासाश्च इति अस्मिन् सूत्रे समासग्रहणं किमर्थम् इति अत्र प्रश्नः इदानीं कृदन्ततद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः भवन्ति पूर्वसूत्रेण एव सिद्धे प्राप्ते पुनः अस्मिन् सूत्रे समासग्रहणं कृत्वा अनेनैव सूत्रेण समासस्य प्रातिपदिकसंज्ञा किमर्थं विधीयते इति प्रश्नः महान् प्रश्नः एषः तदा उच्यते पूर्वसूत्रेणैव सिद्धे समासग्रहणं नियमार्थम् अत्र नियमः क्रियते कः नियमः नियमः कः अत्र नियमः कीदृशः नियमः क्रियते समासस्य प्रातिपदिकसंज्ञा आवश्यकम् अतः पूर्वसूत्रेण भवतु वा अनेन कृत्तदितसमासाश्च इति प्रकृतसूत्रेण भवतु वा यत्किमपि भवतु को भेदः इति प्रश्नः अस्माभिः आगच्छति यतो हि संज्ञासूत्रमेतत् किमर्थं विधानं नास्ति संज्ञा विधीयते प्रातिपदिकसंज्ञा विधीयते एतेषां समासस्य प्रातिपदिकम् इति नाम आगच्छति राजपुरुष इति एकं पदमस्ति तस्य भवतः प्रातिपदिक इति नाम अस्ति प्रातिपदिक इति नाम स्वीकारेण प्रातिपदिक निमित्त ये यानि यानि कार्याणि सन्ति तानि सर्वाणि कार्याणि युष्मासु आगच्छन्ति इति एतादृश विधानं क्रियते संज्ञा विधानेन. तत् केन सूत्रेण भवतो तत्र को भेदः इति इत्युक्ते अत्र पाणिनिना अत्र व्याख्याकाराः किं वदन्ति पूर्वसूत्रेणैव सिद्धे समासग्रहणं नियमार्थम् सिद्धे सति आरभ्यमाणो विधिः नियमाय कल्पते इति एकं वाक्यमस्ति. सिद्धे सति आरभ्यमाणो विधिः नियमाय कल्पते अस्माकं प्रसिद्ध उदाहरणं तत्र संस्कृतसम्मेलनं सुजाता भगिनी महादेवन् महोदयः पाकस्य व्यवस्थापकः सुजाता भगिनी संचालिका तमिलनाडु प्रदेशस्य सा एव तत्र प्रधान सर्वं पश्यति. परन्तु यत्र महादेवन् महोदयः पाकविभागे सा पुनः न गच्छति यतोहि महादेवन् महोदयः तत्र अस्ति सः कार्यं करोति इति सा विश्वसिति. अतः इदानीं पूर्वसूत्रेण एव सिद्धे समासग्रहणं नियमार्थम्. नियमः नाम इदानीमेकं राजपुरुषः गच्छति इति वाक्यं स्वीकुर्मः. राजपुरुषः गच्छति इति अस्मिन् वाक्ये राजपुरुषः गच्छति इति वाक्ये समग्रवाक्ये कदाचित् प्रातिपदिकसंज्ञा भवितुमर्हति. एवं सा वाक्यस्य इदानीं पदानां समूहस्य फ्रेसस् इति आङ्ग्लभाषया वदामः. राजपुरुषः गच्छति इति इत्यस्यापि यदि प्रातिपदिकसंज्ञा भवति चेत् राजपुरुषः गच्छति प्लस् सुप्रत्ययः राजपुरुष गच्छतिः इति हरिशब्दवत् भवति. एवं सर्वत्र प्रातिपदिकसंज्ञा वाक्येषु अपि स्यात्. अतः पाणिना किं कृतम् समासग्रहणं द्वितीयसूत्रे विशेषस्वीकारेण यदि कश्चन पदसमुदायस्य प्रातिपदिकसंज्ञा भवति चेत् सः समासस्यैव न तु वाक्यस्य इति नियमं द्योतयितुं द्वितीयसूत्रे समासग्रहणं कृतम्. अवगतं वा? इदानीं समासः अपि पदसमूहः. राजपुरुषः इत्यत्र राज्ञः पुरुषः इति पदद्वयं पूर्वपदम् उत्तरपदमिति पदद्वयं विद्यते. राजपुरुषः गच्छति इत्यत्र पदत्रयं विद्यते. इदानीम् अस्माकं प्रश्नः अत्र राजपुरुषः गच्छति इत्यत्र प्रातिपदिकसंज्ञा किमर्थं नास्ति? केवलं राजपुरुष इत्यस्य प्रातिपदिकसंज्ञा कथम् अस्ति? अस्माभिः उच्यते एषः समासः, तत्तु वाक्यम्. इदानीं पाणिनिना नियमेन उक्तं वा एतत् इत्युक्ते यद्यपि पूर्वसूत्रेण समासस्य प्रातिपदिकसंज्ञा स्यात् तथापि पुनः द्वितीयसूत्रे कृत्तद्वितसमासाश्च इति समासग्रहणम् एव नियमार्थम् इति यद्यपि सिद्धे सति आरभ्यमाणो विधिः सिद्धे इदानीं पूर्वसूत्रेण प्रातिपदिकसंज्ञा समासस्य सिद्धा. परन्तु पुनः समासग्रहणम् अस्मिन् सूत्रे नियमार्थं कृतम्. कीदृशनियमार्थम्? यदि पदसमुदायस्य प्रातिपदिकसंज्ञा भवति चेत् समासस्यैव न तु वाक्यस्य इति नियमार्थम् अत्र समासग्रहणम् अस्मिन् सूत्रे कृतम्. एवं राजपुरुषः पुरुष इति शब्दस्य प्रातिपदिकसंज्ञा केन सूत्रेण इति प्रश्ने कृते कृत्तद्वितसमासाश्च इत्येव उत्तरम्. अस्य सूत्रस्य उदाहरणं किम् इत्युक्ते राम इदानीं पश्यतु सीतायाः पतिः इत्यत्र वाक्यमस्ति सीतापति इत्यत्र समासः अस्ति सीतायाः पतिः वाक्ये प्रातिपदिकसंज्ञा न भवति सीतापतिः सीतापति इति समासः भवति यत्र संघाते पूर्वो भागः पदं तस्य चेत् भवति तर्हि समासस्यैव अत्र मया किञ्चित् सुलभतया सुलभप्रकारेण उक्तं यदि पदसमुदायस्य यदि प्रातिपदिकसंज्ञा भवति चेत् सः तु समासस्यैव न तु वाक्यस्य तेन वाक्यस्य न प्रातिपदिकसंज्ञा अतः कृत्तद्वितसमासाश्च इत्यत्र समासग्रहणं किमर्थम् इति प्रश्नः आगच्छति समासग्रहणं पाणिनिना कृतं केवलं तत्र वाक्यस्य प्रातिपदिकसंज्ञा वारणाय इति अस्माभिः उच्यते इदानीम् अग्रिमसूत्रं तर्हि प्रातिपदिकसंज्ञाकरणेन को लाभः प्रातिपदिकसंज्ञाकरणानन्तरं किं भवति इत्युक्ते प्रातिपदिकसंज्ञाकरणेन झटिति प्रातिपदिकसंज्ञानिमित्तकार्याणि भवन्ति कानि 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 तानि कार्याणि इत्युक्ते सुप्रत्यययोगः सुबादिप्रत्यययोगः के ते प्रत्ययाः इत्युक्ते सौजसमौच्चष्ठाभ्यां स्नेभ्यां स्न्यसिभ्यां न्यसोसां न्योऽसुप् इति सन्धिसहित सूत्रम् एतस्य सूत्रस्य सम्यक् अभ्यासः करणीयः तत्र छेदः एवम् अस्ति सु औ जस् अम् औत् षस् टा भ्यां भिस् ङे भ्यां भ्यस् ङसि भ्यां भ्यस् ङस् ओस् आम् ङी ओसुप् एते सप्तविभक्तयः त्रीणि वचनानि सु औजस् इति प्रथमा अम् औक्षस् इति द्वितीया टाभ्यां भ्यस् इति तृतीया ङेभ्यां भ्यस् इति चतुर्थी इत्युक्ते एते प्रत्ययाः प्रातिपदिकानां योगे एते प्रत्ययाः आगच्छन्ति तत्र इदानीम् अस्य सूत्रस्य एकमेव पदं सुप् सौ सौट् तदेकमेव पदम् एकपदात्मकं सूत्रम् एतत् समासः अस्ति सुश्च औश्च जश्च अं च औट् च षश्च ताश्च भ्याश्च भिश्च ङेश्च भ्याञ्च भ्यश्च ङसिश्च भ्याश्च भ्यश्च ङश्च ओश्च आं च ङिश्च ओश्च सुप् च एतेषां समाहारः स्वौजसमौट् इत्यादि सुप् पर्यन्तम् एवम् एकविंशतिप्रत्ययानाम् उल्लेखः अस्मिन् सूत्रे विद्यते एते प्रत्ययाः एव सुप्रत्ययाः इति उच्यन्ते अभिधीयन्ते सुप्रत्ययाः नाम अत्र प्रत्याहारः कृतः सुप्रत्ययः नाम सु सु इति आदिप्रत्ययः सुप् इति अन्तिमप्रत्ययः तत्र पकारः अस्ति एवम् आदिसकारः अन्त्यपकारं स्वीकृत्य प्रत्याहारः कृतः अतः सुप्रत्ययाः नाम एकविंशतिप्रत्ययाः एतेषां प्रत्ययानाम् एकवारं नोट्बुक् मध्ये तत्र लेखनपुस्तकमध्ये लिखित्वा अभ्यासः करणीयः यतोहि सर्वत्र एते प्रत्ययाः आगच्छन्ति एवं पदच्छेदः कृतः अत्र प्रत्ययः परश्च ज्ञाप्रातिपदिकात् इत्यादि अधिकाराः सन्ति पश्यामः इदानीम् अस्य सूत्रस्य अर्थः कः इत्युक्ते ण्यन्तात् आबन्तात् प्रातिपदिकात् च परे स्वादयः प्रत्ययाः स्युः एते एकविंशति सुप्रत्ययाः स्वादयः इति उच्यन्ते केषां परतः एते प्रत्ययाः युज्यन्ते ण्यन्तात् ण्यन्तशब्दानाम् आबन्तशब्दानां प्रातिपदिकानां च परे एते प्रत्ययाः युज्यन्ते इदानीं पुनः एकवारं सर्वे तत्र नोट्बुक् मध्ये कृपया लिखन्तु सु औ जस् अम् औषस् ताभ्यां भिस् ज्ञेभ्यां भ्यस् नसिभ्यां भ्यस् नस् ओस् आम् ञी ओस्तु इदानीम् अत्र इत्संज्ञकाः प्रत्ययेषु इत् कुत्र कुत्र सन्ति इति अस्माभिः ज्ञातव्यम् तत् आगच्छामः इदानीं ण्याप्रातिपदिकात् ण्याप्रातिपदिकादिति चतुर्थाध्यायस्य प्रथमपादस्य प्रथमं सूत्रम् अत्र तृतीयाध्यायस्य प्रत्ययः परश्च इति तृतीयाध्यायस्य प्रथमपादस्य एकं सूत्रं विद्यते परश्च इति तृतीयाध्यायस्य प्रथमपादस्य द्वितीयं सूत्रम् प्रत्ययः परश्च इति अधिकारः प्रत्ययः प्रत्ययाधिकारः तृतीयाध्यायस्य आदितः पञ्चमाध्यायस्य अन्तिमपर्यन्तं प्रत्यय अधिकारः विद्यते कृपया शृण्वन्तु तृतीयाध्यायस्य आदौ एव प्रत्ययाधिकारः आरभ्यते प्रत्ययाधिकारः महाधिकारः तृतीयाध्यायस्य प्रथमसूत्रात् पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तं निष्प्रमाणिश्च इति सूत्रं विद्यते तत्र पर्यन्तं प्रत्ययाधिकारः विद्यते एवं सर्वे प्रत्ययाः तृतीयाध्याय तृतीयचतुर्थपञ्चमाध्यायेषु एव उक्ताः सर्वे प्रत्ययाः एतेषु अध्यायत्रये मध्ये एव उक्ताः इदानीं ण्यन्तः नाम ङीप् ङीष्णीनिति स्त्रीप्रत्ययाः स्त्रीप्रत्ययान्तशब्दाः आबन्तः नाम टाप् डाप् चाप् इति स्त्रीप्रत्ययाः एते प्रत्ययाः यदा भवन्ति गौरी रमा इत्यादि शब्दाः भवन्ति तेषां परतः अपि के प्रत्ययाः भवन्ति तेषां परतः अपि सुप्रत्ययाः भवन्ति एकविंशति सुप्रत्ययाः इदानीं सौजस् इति सूत्रे एकविंशति प्रत्ययाः ण्यन्तात् भवन्ति आबन्तात् भवन्ति प्रातिपदिकात् अपि भवन्ति एते सुप्रत्ययाः इति तदेव उच्यते इदानीम् एतस्य प्रत्ययः इति अधिकारः आपञ्चमसमाप्ते अधिकारोऽयं परश्च इत्यपि एवमेव अस्ति तदनन्तरम् अग्रिमसूत्रः सुपः इति पश्यति इति अस्ति सुपः एकपदात्मकं सूत्रम् एकवचन द्विवचन बहुवचनान्येकशः इति अनुवर्तते कुत्र अनुवर्तते कुत्रतः तान्येकवचन द्विवचन बहुवचनान्येकशः इत्यस्मात् अनुवर्तते एतेषां त्रीणि त्रीणि वचनानि एकशः एकवचन द्विवचन बहुवचनसंज्ञानि स्युः इदानीम् अस्माभिः किं कृतम् सु औजस् इति प्रथमा इति आगतम् कस्य एकवचनम् कस्य द्विवचनम् कस्य बहुवचनम् इति नागतम् इदानीम् उच्यते सुपः इति सूत्रेण किम् उच्यते सु औजस् इति एतेषु एकविंशतिषु प्रत्ययेषु तत्र त्रीणि वचनानि भवन्ति, एकवचन द्विवचन बहुवचनानि भवन्ति इति साधारणतया उच्यते। एकवचनं नाम किं, द्विवचनं नाम किं, बहुवचनं नाम किम् इति अग्रिमसूत्रे उच्यते। द्वेकयोर्द्विवचनैकवचने, द्वेकयोर् द्वि एकयोः यदा द्वित्वविवक्षा अस्ति, इदानीं द्वौ रामौ स्तः, द्वित्वविवक्षा अस्ति, रामौ गच्छतः, रामौ पततः इति द्वित्वविवक्षा अस्ति। एवं द्वित्वविवक्षायाम्, एकत्वविवक्षायाम् रामः गच्छति इति एकः एव रामः अस्ति, एकत्वविवक्षायाम् अस्माभिः किम् उच्यते? द्वित्वविवक्षायाम्, एकत्वविवक्षायाम् द्विवचनैकवचने, द्वित्वविवक्षायाम् द्विवचनम्, एकत्वविवक्षायाम् एकवचनम् अस्माभिः क्रमशः क्रियते इति अत्र उक्तम्। एवं सुप्रत्ययानां मध्ये तत्र एकविंशति प्रत्ययानां मध्ये अत्र एवम् आगतम्, सु औजस् अम् औषस् ताभ्यां विस् ङेभ्यां व्यस् नसिभ्यां व्यस् नस् ओस् आम् नि ओसुप् इति एते प्रत्ययाः इदानीम् आगतम्। तत्र सम्बोधनप्रथमाविभक्ति इति तु प्रथमाविभक्तेः एव भेदः, अतः तस्यापि सु औजस् इत्येव प्रत्ययः। इदानीं किं कुर्मः? अत्र अनुबन्ध इत्युक्ते तत्र इत् संज्ञां निष्कास्य कथं भवति इति पश्यामः। इदानीं सु औजस् इत्यत्र यदि उपदेशे अजरुनासिक इत् इति सु इत्यत्र उकारः अस्ति, अनुनासिकः अस्ति, अतः सु इत्यस्य उकारः इत्संज्ञकः, इत्संज्ञकस्य लोपः भवति, तदनन्तरं स् इति अवशिष्यते। एवम् औ जस् जस् इत्यत्र सकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा कर्तुं शक्यते, परन्तु न कृतः, केवलं जकारोत्तर केवलं तत्र जकारस्य जस् इत्यत्र अस् इति आगतम्। एतत् सर्वं कथम् आगतम् इति वयं पश्यामश्चेत् तत्र अग्रिमसूत्रं किम् अस्ति? विरामो अवसानम् ऋत्ववितर्गौ रामः। तत्र प्रक्रियां दशायां वयं पश्यामः। इदानीं रामशब्दस्य साक्षात् प्रक्रियां कुर्मः। इदानीं प्रक्रियाविषये मम एषः निर्बन्धः विद्यते, प्रक्रियालेखनम् अस्माभिः अवश्यं करणीयम् एतस्य कक्षायाः समाप्त्यनन्तरम्। श्वः अग्रिमकक्षायाः आरम्भपूर्वमेव अस्माभिः प्रक्रियालेखनं कर्तव्यम्। यद्यपि स्लैड् मध्ये सर्वमस्ति, स्लैड् दृष्ट्वा एव लिख्यते, तथापि पुनः लेखनीयम्। प्रथमं प्रक्रियालेखनसमये रूपज्ञानम् अपेक्षितम्। आदौ अकारान्तपुल्लिङ्गः रामशब्दः इति शब्दस्य लेखनम्, एवं शब्दलेखनेन रूपज्ञानम् आगतम्। इदानीं रूपस्य कथं प्रक्रिया इत्येव अस्माभिः उच्यते। इदानीं रामशब्दस्य रमन्ते योगिनः अस्मिन् इति रामः, रम् क्रीडायाम् इति धातोः गञ् प्रत्यये कृते रम् आ राम इति आगतम्। एतत् सर्वं किं अत्र लघुकौमुद्यां न उच्यते, तथापि मया उच्यते। इदानीं राम इति शब्दं स्वीकुर्वन्तु। आदौ प्रथमाभक्ति एकवचनरूपम्। इदानीं कृपया यदा मया उच्यते तदात्र लिखन्तु राम इति अस्ति, राम इति लिखित्वा प्रथमाविभक्ति एकवचनविवक्षायां रामः गच्छति इति विवक्षायां रामः इति प्रयोगः अस्माभिः करणीयः। राम इति शब्दमेव अस्ति। इदानीं तस्य सुप्रत्ययस्य योगेन रामसु इति भवति। इदानीं सु इत्यत्र
சகாரஹ சகாரோத்தர உகாரஹ உபதேசே அஜனுநாசிக இது இது உகாரஸ்ய இத்சன்யா பவதி. இத்சன்யா யதா பவதி ததா தஸ்ய லோபஹ இதி சூத்ரேண தஸ்ய உகாரஸ்ய லோபஹ பவதி. உகாரஸ்ய லோபே கிருதே அனுபந்த விநிர்முக்தே ராமாஸ் இதி கிருத் இதி ஜாதே ததனந்தரம் சசஜுஷோ ருஹு இதி சூத்ரம். குத்ர அதீதம் அஸ்மாபிஹி சசஜுஷோ ருஹு இதி சசஜுஷோருஹு விசர்கசந்தௌ சந்திப்பிரகரணே அதி சந்திப்பிரகரணே அஸ்மாபிஹி அதீதம். இதானீம் சகாரஸ்ய ருத்வம் சசஜுஷோருஹு இத்யனேன ருத்வே கிருதே இதா ருத்வ விதானே கிருதே கிம் பவதி ராம ரு ரு இதி பவதி. ததனந்தரம் உபதேசே அஜனுநாசிக இது உகாரஸ்ய இத்சன்யா ராம ரு இதி பவதி. ராம ரு இதி கிருதே இதானீம் இதானீம் அஸ்மாபிஹி அக்ரிமசூத்திரம் விராமோ அவசானம் இதி அஸ்தி. விராமோ அவசானம் மூலம் பஷ்யந்து லகுகௌமுத்யாம் விராமோ அவசானம் வர்ணானாம் அபாவஹ அவசான சந்நியஹ ஸ்யாத். இதானீம் வர்ணானாம் அபாவஹ வர்ணானாம் அபாவஹ அவசானம் நாம வர்ணானாம் அபாவஹ விரம்யதே அஸ்மின்னிதி விராமஹ இத்யபி அஸ்தி. இதானீம் யத்ர உச்சாரணஸ்ய விராமஹ பவதி அந்திம வர்ணஸ்ய விராமஹ பவதி ததனந்தரம் கிமபி நாஸ்தி சேத் சயேவ அவ யத்ர விராமஹ பவதி சயேவ அவசான சஞ்ஞா இதி உச்சதே. விராமோ அவசானம் இதி அவசானம் நாம சஞ்ஞா. இதானீம் கரவசானயோர் விசர்ஜனியஹ அவசானே யதி கர் அஸ்தி கரவசானயோஹ கரவசானயோஹ விசர்ஜனியஹ இதி ரேஃபஸ்ய அவசானே ஸ்திதஸ்ய ரேஃபஸ்ய விசர்கஹ பவதி. ஏவம் ரேஃபஸ்ய விசர்கஹ ராமஹ இதி ரூப இதி ப்ரக்ரியா ரூப நிஷ்பத்திஹ அபவத். ராம இதி ப்ராதிபதிக ப்ராதிபதிக சஞ்ஞா அஸ்தி கேன சூத்ரேண ப்ராதிபதிக சஞ்ஞா இதி அஸ்மாபிஹி ஞாதவ்யம். ராம இதி கிருத்தபித சமாசாஸ்ச இத்யனேன ப்ராதிபதிக சஞ்ஞா யதோ ஹி ராம இதி சப்தஹ ரம ரமந்தே யோகினஹ அஸ்மின் இதி ரம் தாதோஹ நிஷ்பன்னஹ ஏவம் கிருதந்த சப்தஹ ராம சு இதி ஸ்திதே சு இதி பிரதமா விபக்தி ஏகத்வ விவக்ஷாயாம் சு பிரத்யயஹ யுஜ்யதே. ராமசு இதி ஸ்திதே அஸ்மாபிஹி உபதேசே அஜனுநாசிக இத் தஸ்ய லோபஹ இதி அனுபந்த லோபே கிருதே சகாரஸ்ய சசஜுஷோ ருஹு இத்யனேன சகாரஸ்ய ருத்வே கிருதே ருத்வஸ்ய ருத்வே தத்ர உகாரஸ்ய லோபே கிருதே ரேஃபஸ்ய விசர்காதேசஹ கரவசானயோர் விசர்ஜனியஹ இதி சூத்ரேண ஏவம் ராமஹ இதி ரூபஸ்ய நிஷ்பத்திஹ. இதானிம் அவகதம் வா சர்வைஹ. ஏதாதிருஷ லேகனம் ஏவ ப்ரக்ரியா இதி உச்சதே. ப்ரக்ரியா லேகனம் நாம அத்ர பிரதமம் காரியம் ராமசு இதி காரியம் தஸ்ய பார்ஷ்வே சூத்ரஸ்ய லேகனம் சூத்ரஸ்ய வா நிர்தேசஸ்ய வா லேகனம் சூத்ரஸ்ய லேகனம் சூத்ர சங்க்யா லேகனம் கிம் பவதி அனேன சூத்ரேண இதி தத்ர சங்க்ஷேபேன பார்ஷ்வே லேகனம். ஏவம் வென் வைல் ரைட்டிங் இன் த நோட் புக் அஸ்மாபிஹி காலம் த்ரயம் வி ஹாவ் டு ஹாவ் பிளேஸ் அண்ட் டிவைட் திஸ் இன் டு த்ரீ காலம்ஸ். ஃபர்ஸ்ட் காலம் இஸ் பிரக்ரியா, செகண்ட் காலம் இஸ் ஃபார் சூத்ரா அண்ட் சூத்ரா நம்பர், தேர்ட் காலம் இஸ் வாட் டிட் திஸ் சூத்ரா டு டு த பிரக்ரியா காரியஸ்ய சங்க்ஷேபஹ. இதானீம் பிராதிபதிக சஞ்ஞா விதானம் सुप्रत्यय योगः सुप्रत्यय योगः इत्संज्ञा करणं तस्य लोपः एतादृश पार्श्वे लेखनम् एवं लिख्यते चेत् तदा एव अभ्यासः भवति एतादृश प्रक्रियाः अवश्यं लेखनीयाः सर्वैः कृपया लिखन्तु इति प्रार्थये यदि लेखनं विना केवलं स्लैड् दर्शनं श्रवणं तेन किमपि नागच्छति यदि युष्माभिः एव प्रक्रिया क्रियते तदा एव आगच्छति इदानीं प्रथमाविभक्तौ विवचनविवक्षायाम् इदानीं द्वौ रामौ स्तः द्वौ रामौ इदानीं रामद्वयस्य विवक्षा करणीया व्यक्तिद्वयविवक्षायां राम राम इति स्थिते राम राम इदानीम् अस्माभिः किं करणीयम् राम इति एकस्य रामस्य प्रत्ययः रामासु रामासु इति रामद्वयस्य रामद्वयस्यापि अस्माभिः प्रत्ययः प्रत्ययस्य विधानं कर्तव्यम् अस्माभिः किं क्रियते तत्र प्रथमरामस्य प्रत्ययाः द्वितीयरामस्य प्रत्ययाः एवं तत्र बहु क्लेशाः सम्भवन्ति अतः अस्माभिः किं क्रियते इत्युक्ते सरूपाणाम् एकशेष एकविभक्तौ इति अग्रिमसूत्रं विद्यते सरूपाणाम् एकशेष एकविभक्तौ इति सूत्रं विद्यते पदत्रयं विद्यते सरूपाणाम् एकशेषः एकविभक्तौ इति पदत्रयं विद्यते अत्र एकविभक्तौ यानि सरूपाणि दृष्टानि तेषाम् एकः एव शिष्यते इति सूत्रार्थः इत्युक्ते इदानीं राम राम इति द्वित्वविवक्षायाम् अस्माभिः राम राम इत्यत्र सरूपं दृश्यते सरूपम् इत्युक्ते राम इत्यत्र रकारोत्र आकारः मकारोत्र आकारः यत्तस्ति स एव रकारोत्र आकारः मकारोत्र आकारः अस्ति सरूपं नाम स एव अर्थः अपि स एव अस्ति अतः अस्माभिः किं क्रियते सरूपम् अस्ति चेत् एकविभक्तौ यानि सरूपाणि दृष्टानि तेषाम् एकः एव शिष्यते इति अयम् इदं सूत्रम् अस्माकं साहाय्यं करोति अतः किं भवति अत्र राम राम इत्यत्र एकशेषः इत्युक्ते एकः एव शिष्यते एकः प्रक्रियानिमित्तम् एकः एव रामः शिष्यते इदानीम् एकम् उदाहरणमस्ति मातृशब्दः मातृशब्दस्य अर्थं मातृशब्दस्य अर्थः कः इत्युक्ते मातृशब्दस्य माता जननी जननी वा जननी शब्दवाची माता मातृशब्द मातृशब्दः तत्र परिच्छेत्ता इत्यपि अर्थः अस्ति इदानीं वाल्युएशन् इति अस्ति वाल्युएशन् इत्युक्ते सैट् वाल्युएशन् करोति एकः आगच्छति मम समीपे एकं 30-40 सैट् अस्ति कृपया अस्य परिच्छेदनं करोतु परिच्छेदनं नाम मेजर् दिस् सैट् परिच्छेत्ता अस्ति परिच्छेत्ता नाम वन् हू मेजर्स् परिच्छेत्रवासी मीयते अनेन इति मानम् इति अस्ति तत्र अस्त्युत्तरस्याम् दिशि देवतात्मा हिमालयो नाम नगाधिराजः पूर्वापरौ तोयनिदीव गाह्य स्थितप्रतिव्या इव मानदण्डः मानदण्डः इत्यत्र मीयते अनेन इति मानम् माङ् माने इति धातुः एवं मातृ इति शब्दस्य जननीत्यपि अर्थः भवितुमर्हति स्त्रीलिङ्गशब्दः मातृ इत्यस्य यः एकः पुरुषः मात् परिच्छेत्ता भवति वन् हू मेजर्स् सः अपि मातृ इति अनेन शब्देन अस्माभिः वक्तुं शक्यते इदानीं मातृ इत्यत्र भ्याम् भ्यस् इत्यत्र स्वरूपाः भवन्ति परन्तु सु औजस् इत्यत्र माता मातरौ मातरः इति जननीशब्दवाची शब्दः परन्तु मातृशब्दः परिच्छेत्रवाची शब्दः माता मातारौ मातारः इति भवति एवं तत्र इदानीम् एका माता आगच्छति एका परिच्छेत्ता आगच्छति उभौ स्वीकृत्य अस्माभिः एकशेषः कर्तुं शक्यते वा इति प्रश्नः माता आगच्छति परिच्छेत्ता अस्माकं सैट् परिच्छेत्ता अपि मात्रा सह आगच्छति वयं पश्यामः इदानीम् अस्माभिः एकशेषं कृत्वा सः अपि माता भवति अत्र जननी अपि अस्माकं जननी अपि आगच्छन्ती अस्ति अतः तौ दृष्ट्वा अस्माभिः एकशेषः कर्तुं शक्यते वा स्वरूप तत्र शब्दस्तु स्वरूपः मातृ इति शब्दः इत्युक्ते न कर्तुं शक्यते यतोहि तेषां विरूपत्वं तत्र औजस् इत्यादिषु तेषां विरूपत्वं दृश्यते अतः एकशेषो न इदानीं प्रकृतमनुसरामः प्रकृतं प्रकृते किम् इत्युक्ते द्वौ रामौ स्तः तत्र रामद्वयस्य दर्शनेन अस्माभिः किं कृतं राम इत्यस्य प्रथमरामस्यापि सुप्रत्ययाः योजनीयाः द्वितीयरामस्यापि सुप्रत्ययाः योजनीयाः अतः अस्माभिः रामासु रामासु इति एवं प्रक्रिया करणे क्लेशः तदा व्याकरणसूत्रमेव अस्माकं साहाय्यं करोति स्वरूपाणाम् एकशेष एकविभक्तौ यदि एकविभक्तौ यानि स्वरूपाणि दृष्टानि तेषाम् एकविभक्तौ इति अस्ति एकविभक्तौ यदि स्वरूपाणि दृष्टानि तेषाम् एक एव शिष्यते एकः एव शिष्यते इति एतेन नियमेन अस्माभिः किं क्रियते राम सु औ द्वित्वविवक्षायां प्रत्ययः कः राम औ राम इत्यस्य प्रातिपदिकसंज्ञाकेन सूत्रेण कृत्तद्विधसमासाश्च सूत्रेण तदनन्तरं प्रातिपदिकसंज्ञाकरणानन्तरं किं भवति प्रत्ययाः आगच्छन्ति झटिति खले कपोतन्यायेन झटिति सर्वे एकविंशति प्रत्ययाः आगच्छन्ति खले कपोतन्यायः इति सर्वे जानन्ति किल कपोताः इदानीं वयं तत्र धान्यानां क्षेपणं कुर्मः तत्र बहिः तत्र मार्गे गेट्वे आफ् इण्डिया मध्ये तत्र धान्यानां धान्यं स्वीकृत्य एवं क्षिपामश्चेत् कपोताः सर्वे आगत्य तत्र धान्यस्य स्वीकारे उत्सुकाः भवन्ति एवं खले कपोतन्यायेन यथा सर्वे कपोताः सर्वा तत्र धान्यानां स्वीकरणार्थं यथा आगच्छन्ति अत्र सर्वे एकविंशति प्रत्ययाः राम इति शब्दस्य प्रातिपदिकसंज्ञाकरणानन्तरं झटिति आगत्य तिष्ठन्ति तदा अस्माभिः विवक्षा करणीया भवति इदानीं मया तत्र प्रथमा विभक्तौ एकत्वविवक्षा क्रियते तदा सर्वे कपोताः गच्छन्ति इत्युक्ते एक एव प्रत्ययः शिष्यते प्रथमा विभक्तौ एकत्वविवक्षायां सुप्रत्ययः एव स्वीक्रियते एवं प्रथमा विभक्तौ द्वित्वविवक्षायां सु औ औ इति प्रत्ययः स्वीक्रियते एवं खले कपोतन्यायेन सर्वे प्रत्ययाः प्रथमं तत्र आगच्छन्ति प्रथमं यदा अस्माभिः विवक्षा क्रियते तदा अन्ये प्रत्ययाः निर्गच्छन्ति केवलम् औ प्रत्ययः अवशिष्यते राम औ इति स्थिते किं भवति किं भवति राम औ इत्यत्र राम औ इत्यत् रामा औ इत्यत्र आ आ औ इति इति कृते तत्र प्रथमं वृद्धिसन्धेः प्राप्तिः अस्ति रामा औ इति स्थिते आ औ इत्यत्र वृद्धिसन्धे वृद्धिरेचि इति सूत्रेण रामौ इति भवितव्यम् ततः किं भवति तत्र वृद्धिसन्धिः वृद्धिरेचि इति सूत्रं तु प्रथमाध्य वृद्धिरेचि इति सूत्रं कुत्र अस्ति षष्टाध्याये अस्ति एवं प्रथमयोः पूर्वसवर्णः इति सूत्रं ततः परम् अस्ति इदानीं प्रथमयोः पूर्वसवर्णः इति सूत्रम् अत्र पदद्वयं विद्यते इको यणचि इत्यतः अचि इति अकस्सवर्णे दीर्घः इत्यतः अकः इति दीर्घः इति अनुवर्तते एवम् एकः पूर्वपरयोः इति अधिकारः अपि अस्ति इदानीं किं क्रियते अस्माभिः प्रथमयोः इत्युक्ते प्रथमयोः इति षष्ठी विभक्तिः अकः इति स्वीकृतम् अक्वर्णपरतः पञ्चमी अचि सप्तमी स्वरे परे अचिपरे पूर्वसवर्णः दीर्घः पूर्वसवर्णः नाम पूर्वसवर्णदीर्घः भवति पूर्वसवर्णदीर्घः इति प्रथमाविभक्तिः अस्ति एवम् अत्र सूत्रार्थः एवमस्ति अकः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः भवति एकादेशः इति एकपूर्वपरयोः इति अधिकारेण आगतम् इदानीं राम इति इत्यत्र अकारान्तः अस्ति अतः अक् अस्ति प्रथमाद्वितीययोः प्रथमाविभक्ति द्विवचनस्य विवक्षा इदानीम् अस्माकम् अस्ति अच्परकत्वम् अस्ति औ इति प्रत्ययः अच्परकत्वम् अस्ति राम औ इति अस्ति अतः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः पूर्वसवर्णदीर्घः नाम पूर्वसवर्णदीर्घः नाम पूर्वसवर्णदीर्घः नाम किम् पूर्वसवर्णः दीर्घः नाम किम् पूर्ववर्णस्य सवर्णः स्यात् दीर्घः अपि स्यात् इदानीं यदि इकारः औकारः अस्ति यदि इकारः अस्ति इकार औकारः यदि अस्ति चेत् पूर्वस्य सवर्णः इकारस्य सवर्णः दीर्घः इत्युक्ते ईकारः एवम् अकार औकारयोः अकारस्य सवर्णः दीर्घः दीर्घः अपि भवेत् आकारः एवम् आकारः एव पूर्वसवर्णदीर्घः आकार औकारयोः ஆகாரஹ ஏவ பூர்வசவர்ண தீர்கஹ, ஏஷஹ ஏவ பூர்வசவர்ண தீர்கஹ இதி உச்யதே. இதானிம் மகாரோத்தர அகாரஹ, மகாரோத்தர அகாரஹ ஆகாரஹ, ராம இத்யஸ்ய இத்யத்ர மகாரோத்தர அகாரஹ ததனந்தரம் ஔகாரஹ அஸ்தி. இதானிம் அனயோர் மத்யே பூர்வசவர்ண தீர்கஹ ஏக பூர்வசவர்ண தீர்கஹ பவதி சேத் பூர்வசவர்ணஹ கஹ, பூர்வ பூர்வவர்ணஹ அகாரஹ தஸ்ய சவர்ணஹ ஆகாரஹ, தீர்கஹ அபி பவேத் ஆகாரஹ ஏவ. ஏவம் ஆகாரஹ ஆகந்தவ்யஹ ததா ஏவம் பூர்வசவர்ண தீர்கே ப்ராப்தே நாதிச்சி, நாக் இச்சி இதி நாதிச்சி இதி பதத்ரயம் வித்யதே. ந ஆத் இச்சி பிரதமயோஹ பூர்வசவர்ணஹ இத்யத்ர பூர்வசவர்ணஹ இதி அனுவர்த்ததே. ஆத் இதி பஞ்சமி விபக்தி அவர்ணாத், அவர்ணாத் இச்வர்ணே பரே, இச்வர்ணஹ நாம அச், இச்வர்ணஹ நாம ஐ ஒன்று கேவோங்க தத்ர இச்வர்ணஹ ஆ இ ஈதஹ ச பர்யந்தம் இச்வர்ணாஹ, இச்வர்ணே பரே பூர்வசவர்ண தீர்கஹ ந பவதி இதி நாதிச்சி இதி நிஷேத சூத்திரம் வித்யதே. நிஷேத சூத்திரம் அவர்ணாத் இச்சி பரே ந பூர்வசவர்ண தீர்கஹ இதி நிஷேத சூத்திரம் வித்யதே. ஏவம் ஏத் நிஷேத சூத்ரே ப்ராப்தே அஸ்மாபிஹி கிம் க்ரியதே ராம அவ் பிரதமயோஹ பூர்வசவர்ணஹ இதி ஆகதம். ததனந்தரம் ஏகாதேச நாதிச்சி இதி நிஷேத சூத்ரஸ்ய ப்ராப்திஹி, நிஷேதே ப்ராப்தே அஸ்மாபிஹி புனா உச்சதே ராம அவ் இதி விருத்திரேச்சி இத்யேவ குர்மஹ, விருத்திரேச்சி இத்யேவ கிருத்வா ராமௌ இத்யேவ அஸ்மாபிஹி ஸ்தாபனம் க்ரியதே. ஏவம் அத்ர விருத்திஹி ஏவ ப்ராப்யதே. அவகதம் வா சர்வைஹி. அனுராதா பகினி, முத்துலட்சுமி பகினி, சுப்பிரமணியம் மகோதயா, அஸ்து ஏவம் இதானிம் அக்ரிம பஹுஷு பஹுவச்சனம் இதி அக்ரிம சூத்திரம் வித்யதே. இதானிம் த்வேகயோர் த்விவச்சனைகவச்சனே இதி சூத்திரம் த்வித்வவிவக்ஷாயாம் ஏகத்வவிவக்ஷாயாம் அஸ்மாபிஹி ஸ்வீகிருதம். இதானிம் பஹுத்வவிவக்ஷாயாம் கிம் க்ரியதே அஸ்மாபிஹி, பஹுவச்சனம் ஆக்ரியதே கே கிம் கேன சூத்ரேண பஹுஷு பஹுவச்சனம் இதி சூத்ரேண பஹுத்வவிவக்ஷாயாம் ஏதத் ஸ்யாத். சுட்டு இதி அக்ரிம சூத்திரம் ப்ரத்யாத்யௌ சுட்டு இதௌ ஸ்தஹ. இதானிம் சுட்டு நாம சுட்டு இத்யத்ர சுஷ்ச டுஷ்ச சுட்டு இதி இதரேதர த்வந்த்வஹ ஏகபதாத்மகம் சூத்திரம். சுஷ்ச டுஷ்ச சுட்டு இதி இதரேதர த்வந்த்வஹ அத்ர உபதேச அதுநாஸ்க இத்யத்யஹ இத் இதி ஆதிரிங் இடுடவஹ இத்யதஹ ஆதிஹி இதி ஷஹ ப்ரத்யயஸ்ய இத்யஹ இத்யனேன ப்ரத்யயஸ்ய இதி அனுவர்த்ததே. கிருபையா ஏதத் 137 அஷ்டாத்யாயாம் ஸ்வீகுர்வந்து. தத்ர பூவாதயோ தாதவஹ உபதேசே அதுநாஸ்க இத் ந விபக்தௌ துஸ்மாஹ ஆதிரிங் இடுடவஹ ஷஹ ப்ரத்யயஸ்ய லஷக்வதத்திதே சுட்டு இத்யாதி சூத்ராணி சந்தி. சுட்டு இதி சப்தம சூத்திரம் வித்யதே, பிரதமாத்யாயஸ்ய த்ருதிய த்ருதிய பாதஸ்ய சப்தம சூத்திரம் வித்யதே. கிம் தஸ்ய அர்த்தஹ ப்ரத்யயாத்யௌ சுட்டு, சு நாம சவர்கஹ டு நாம டவர்கஹ ப்ரத்யாதி சவர்க டவர்காஹ யதி ஏதே வர்ணாஹ சவர்கியாஹ உத டவர்கியா வர்ணாஹ ப்ரத்யயாத்யௌ யதி சந்தி தே இத்சங்யகாஹ பவந்தி. இதானிம் இதி रामजस् इति अस्ति. इदानीं बहुवचन विवक्षायां राम 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 इति स्थिते स्वरूपाणाम् एकशेष एकविभक्तौ इति कृते राम इति एकः एव अवशिष्यते. तदनन्तरं कृत्तदितसमासाश्च इति समास प्रातिपदिकसंज्ञा विधीयते. तदनन्तरं एकविंशतिप्रत्ययाः कलेकपोतन्यायेन आगते अस्माभिः बहुत्वविवक्षायां प्रथमाविभक्ति बहुत्वविवक्षायां जस् इति प्रत्यये कृते किं भवति राम राम जस् इति भवति. तत्र जस् इत्यत्र जकारस्य चुटु इत्यनेन किं भवति जकारस्य चुटु इत्यनेन जस् इत्यत्र जकारस्य चुटु इत्यनेन इत्संज्ञा भवति. तेन चुटु इत्यस्य जकारस्य लोपः भवति. एवं जकारस्य लोपे कृते अस् इत्येव अवशिष्यते. इदानीं पुनः प्रश्नः क्रियते अस् इत्यत्र हलन्त्यम् इत्यनेन लोपः कुर्मः. तत्र हलन्त्यम् इत्यत्र उपदेशे अन्त्यं हल् इत्यापि जस् इति उपदेशः. तत्र जस् इत्यत्र सकारस्यापि लोपं कुर्मः हलन्त्यम् इत्यनेन इति इत्संज्ञां कृत्वा लोपकार्यं कुर्मः इति यदा चिन्त्यते तदा विभक्तिश्च इति अग्रिमसूत्रम् आगच्छति. तत्र सुप्तिगण्यौ विभक्तिसंज्ञौ स्तः. एते एकविंशतिसुप्रत्ययाः अष्टादश तिङ्प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति. सुप्तिगौ विभक्तिसंज्ञौ स्तः. एतेषां विभक्तिः इति संज्ञा अस्ति. यदा विभक्तिः इति संज्ञा अस्ति विभक्तिः इति संज्ञा सुपः तिङश्च संज्ञिनः. सु औ जस् इत्यत्र जस् इत्यत्र तत्र जस् इत्यत्र विभक्तिसंज्ञा अस्ति. उकार औकारस्य विभक्तिसंज्ञा अस्ति. सु इत्यस्य विभक्तिसंज्ञा अस्ति. एतेषां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी इति प्राचां संज्ञा न तु पाणिनिना दत्तसंज्ञा. अतः स एव अस्माभिः स्वीक्रियते. इदानीं जस् इत्यत्र विभक्तिसंज्ञा अस्ति. इदानीं प्रश्नः एवमस्ति जकारस्य चुटु इत्यनेन लोपः कृतः सकारस्यापि लोपं कुर्मः इति प्रश्नः अस्ति. तदा उच्यते न विभक्तौ तुस्माः न विभक्तौ तुस्माः. विभक्तिसंज्ञा यत्र यत्र अस्ति तत्र तुस्माः तत्तवर्ग सकारमकाराणाम् इत्संज्ञा न भवन्ति. यदि विभक्तिसंज्ञा अस्ति यस्य कस्यापि विभक्तिसंज्ञा अस्ति तस्य तकारस्य तस्य विभक्तिसंज्ञिनः तकारस्य सकारः सकारस्य मकारस्य इत्संज्ञाः न भवन्ति इति न विभक्तौ तुस्माः इति सूत्रम् वदति. तेन किं जातम् सकारस्य इत्संज्ञा नास्ति सकारस्य न इत्त्वम्. अतः राम 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 इति स्थिते स्वरूपाणाम् एकशेष एकविभक्तौ इति एकशेषः राम जस् इति प्रथमाविभक्तौ बहुवचने विवक्षिते जस् इति प्रत्यये योजिते अस्माभिः राम अस्तीति चुटु इत्यनेन इत्संज्ञा कृते तस्य लोपः इत्यनेन लोपः लोपे कृते तदनन्तरं सकारस्य न विभक्तौ तुस्माः इति निषेधे कृते अस्माभिः अस्तित्येव स्वीकृते राम अस्तीति अस्ति. इदानीं प्रथमयोः पूर्वसवर्णः इति अनेन सूत्रेण पूर्वसवर्णे कृते रामास् इति अकारस्य दीर्घ प्रथम पूर्वसवर्णदीर्घे कृते रामास् इति स्थिते सकारस्य ससजुषो रुः इत्यनेन रुत्वे कृते उकारस्य उपदेशे अजनुनासिक इति तस्य लोपः इति लोपे कृते रेफस्य विसर्गस्य स्था खरवसानयो विसर्जनीयः इति विसर्गे कृते रामाः इति रूपनिष्पत्तिः. एवं रामाः इत्यस्य प्रक्रिया एवम् अस्ति. इदानीम् अवगतं वा? किञ्चित् अभ्यासः करणीयः. एतेषां रामशब्दस्यैव द्विवारं त्रिवारं सेत्र सूत्राणाम् अभ्यासः कथं प्रक्रिया सूत्रस्य अर्थः सूत्रस्य कार्यं किम् एतत् सर्वं किञ्चित् विचिन्त्य तत् नोट्बुक् मध्ये किञ्चित् लेखनीयं भवति कृपया एतस्य प्रक्रिया अत्र स्लैड् मध्ये यथा दर्शितं तथा लिखन्तु एवं रामः रामौ रामाः इत्यत्र प्रक्रियायाः अभ्यासं कुर्वन्तु इति प्रार्थये अत्रैव अद्य समापनं कुर्मः यतोहि सार्धैकघण्टा कक्षा इदानीं प्रथमतया अस्माभिः कृतं प्रायः किञ्चित् अधिकं जातं पुनः किञ्चित् पुनरावर्तनं कृत्वैव अग्रे गच्छामि येनाक्षरसमां नायम् पृच्छन्तु महोदय चू इत्यनेन चवर्गवर्णाः स्वीक्रियन्ते टू इत्यनेन टवर्गवर्णाः टाटाडारणा चाचा जाजाना के पर पञ्चवर्णानामपि स्वीकारः भवति परन्तु तस्य नियमः एवमस्ति प्रत्ययाद्यौ भवितव्यम् प्रत्ययाद्यौ चुटु इत्संज्ञौ स्तः तत्र सूत्रार्थं पश्यन्तु प्रत्ययाद्यौ जस् इति प्रत्ययः प्रत्ययाद्यौ अस्ति प्रत्ययाद्यौ अस्ति जकारः अतः इत्संज्ञकः जकारस्य इत्संज्ञा अवगतं वा महोदयन् महोदय अस्तु अस्तु शुभरात्रि येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहस्विन् गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरो मम पाहि गुरो